अहं रुद्रेभिः वसुभिश्चराम्यहं आदित्यैरूतविश्वदेवैः अहं मित्रावरुणो भावी भरमहं इन्द्रजनीयहमश्विनो भा अहं सोममाहानशं बिभरम्यहं त्वष्टारमूतपूषणं भगम् अहं दधामि द्रवीणं हविष्मते सुप्राव्ये यजमानाय शुन्नते अहं रष्ट्रीसङ्गमनी वसूनां चिकितुषी प्रथमाय यज्ञानां ताङ्मादेवावदधु पुरुत्रा भूरिस्थत्रं भूर्यावेशयन्तीं मया सुवन्नमत्ति यो विपश्यति यः प्राणीतेज इंसेणोत्तुक्तम् अमन्तवमान्त उपक्ष्यन्ति श्रुधि श्रुतश्रद्धिवं ते वदामि अहमेव स्वयमिदं वदामि जुष्टं देवेभिरूतमानुषेभिः यं कामये तं तमुग्रं क्रीणोमि तं ब्रह्माणं तं ऋषिं तं सुमेधम् अहं रुद्राय धनुरातनोमि ब्रह्मदिदिशे सर्वे हन्त बाहु अहं जनाय शमदं क्लीणम्यहं द्यावा पृथिवी आविवेश अहं शूवे पीतरमस्य मूर्धन् मम योनि रप्सन्तः समुद्रे ततो वितिष्ठे भुवनानुविश्व तामं द्यन्वस्म णोपस्पृशामि अहमेव वातैव प्रवम्या रभमाणा भुवनानि विश्वा परो दिवा पर एना पृथिव्यै तावति महीना सम्बभूव ॐ तत्सत् इति ऋग्वेदक्तं देवी सूक्तं समाप्तम्।